गुरुब्रह्म गुरुविष्णु गुरुदेव महेश्वर गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र परिमाणम् अपि परिमाणस्य लक्षणं परिमाणस्य तत्र वयं तत्र विभागः तत्र तर्कसङ्ग्रहे यः विभागः अस्ति अपि अन्यः विभागः तत्र प्रसिद्धः अपि अस्ति नाम तत्र परमाणुपरिमाणं मध्यमपरिमाणम् अपि परममहत्परिमाणम् इति दृष्टवन्तः अपि गतवर्गे तत्र परमाणुपरिमाणस्य तत्र कारणत्वं नास्ति इति दृष्टवन्तः तथैव तत्र परममहत्परिमाणस्य अपि तत्र कारणत्वं नास्ति इति नाम आकाशविषये तत्र कारणत्वं नास्ति इति अपि आगच्छति गतवर्गे वयं किं दृष्टवन्तः नाम तत्र घटस्य परिमाणम् अपि कपालस्य परिमाणं तयोः मध्ये तत्र कार्यकारणभावः अस्ति एव तत्र संशयः तु नास्ति किन्तु तत्र असमवायीकारणं भवितुम् अर्हति वा न वा इति प्रश्नः तत्र वयं तत्र कारणस्य लक्षणं तत्र कीदृशकारणम् इति दृष्ट्वा वयं निश्चितवन्तः आमां तत् तादृशं तत्र भवेत् किन्तु तत्र द्वय अणुके अपि तत्र त्रय अणुके अपि परमाणु अपि द्वय अणुके तत्र द्वय अणुकस्य परिमाणं परमाणोः परिमाणं तयोः मध्ये तत्र परमाणोपरिमाणम् असमवायिकारणं नास्ति द्वय अणुकस्य परिमाणं प्रति इति तत्र वयं तत्र करपत्रे पठितवन्तः तत्र सङ्ख्या एव तत्र असमवायिकारणं भवति इति तत्र एतत् सर्वं चर्चितम् आकाशविषये किञ्चित् आसीत् तस्मिन् करपत्रे तत् इदानीं त्यजामः यतोहि तत्र मूलविषयः अत्र अस्ति तत्र द्वितीयविध असमवायीकारणं तर्हि तत्र अद्य तत्र तस्य विषयस्य आरम्भः भवति तर्हि तत्र अत्रापि नूतनकरपत्रं वर्तते तत्र अहम् अत्रापि दर्शयामि किन्तु यदि तत्र बृहत् नास्ति चेत् अथवा सौकर्यम् अस्ति चेत् तत्र ईमेल् द्वारा अपि तत्र लिङ्क् प्रेषितमस्ति तत्रापि उद्घाटित्वा तत्र उद्घाटित्वा तत्र उद्घाटनं कृत्वा तत्र द्रष्टुं शक्नुवन्ति अस्तु तर्हि अतः तत्र इदानीं तत्र द्वितीयसमवायीकारणस्य वर्णनं किन्तु तत्र किञ्चित् तत्र आदौ अस्ति तत्र पठित्वा शीघ्रमेव पठित्वा तत्र द्वितीय असमवायिकारणवर्णनम् अपि पश्यामः तर्हि तत्र नूतनतया तत्र चन्द्रमती भगिनी नमस्कारः विमला भगिनी नमस्कारः योगेन्द्रमहोदय नमस्कारः नमस्कारः भगिनी
नमस्कारः महोदय
नमस्कारः महोदय अस्तु हा नमस्कारः नमस्कारः भगिनी अस्तु तर्हि आरम्भं कुर्मः तर्हि तत्र इदानीं तत्र अस्मिन् परिच्छेदे केवलं किम् आवश्यकं तत्र उदाहरणानि तर्हि तत्र नीता भगिनी आरम्भं करोति वा तत्र मध्यमरि परिमाणं तु भवति इति
मध्यमपरिमाणं तु भवति स्वाश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति असमवायिकारणं तथा हि घटस्य यावत् परिमाणं कुलालः इच्छति तज्जननयोग्यपरिमाणौ कपालौ एव तेन स्वीकार्यौ तुल्यपरिमाणकयोः कपालयोः तद्विगुणितपरिमाणवत् घटस्य जननदर्शनात् इदमेव च अवयवपरिमाणापेक्षया अवयवीनः महत्परिमाणं शास्त्रे उत्कृष्टं परिमाणम् इति व्यवह्रियते एवञ्च यथा कपालद्वयसंयोगः कपाले समवायेन स्थित्वा तत्रैव घटं जनयति यथा वा एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वित्वं जनयति तथैव कपालपरिमाणमपि कपाले समवायेन स्थित्वा घटपरिमाणं जनयति इति कपालपरिमाणम् अपि असमवायिकारणम्। परन्तु अत्र अस्ति कश्चित् विशेषः।
हा तर्हि तत्र भगिनी भवति तत्र एतावत्पर्यन्तं नाम व्यवह्रियते इति। हा
ओके, हा अस्तु अस्तु। हा तत्र यत् वयं करपत्रे अपि पठितवन्तः तत्र मध्यमपरिमाणं तु भवति स्वाश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति असमवायिकारणं। मध्यमपरिमाणम् इत्युक्ते तत्र वयम् उदाहरणार्थेन दृष्टवन्तः द्वयणुकं चतुरणुकं कपालिकाः कपालघटः एते सर्वे मध्यमपरिमाणे अन्तर्भूताः। त्रयणुकम् आरभ्य चतुरणुकं कपालिकाः कपालघटः सर्वे मध्यमपरिमाणे अन्तर्भूताः। तत्र स्वसजातीय स्व उत्कृष्टपरिमाणजनकत्वम् इत्यनेन स एषः नियमः सिद्धः वर्तते तत्र। अतः तत्र स्वाश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति असमवायिकारणम् इति सिद्ध्यते। तत्र मध्यमपरिमाणं कृते न अणुपरिमाणं वा महत्परिमाणम् एतस्य कृते, परन्तु मध्यमपरिमाणस्य कृते तत्र स्वसजातीय स्व उत्कृष्टपरिमाणजनकत्वम् इति नियमः सिद्ध्यते। अनन्तरं स्पष्टीकरणं दत्तमस्ति, यथा घटस्य यावत् परिमाणं कुलालः इच्छति तज्जन्ययोग्यपरिमाणकौ कपालौ एव तेन स्वीकार्यौ। कपालद्वयं तस्य कपालद्वयं स्वीकुर्मः चेत् अनन्तरं घटस्य निर्मितिः भवति। तत्र घटस्य यावत् परिमाणं कुलाल इच्छति तथैव तज्जन्यपरिमाणौ कपालद्वये तेन एव स्वीकार्यौ इति उदाहरणं दत्तमस्ति। तुल्यपरिमाणकयोः कपालयोः त्वद्गुणितपरिमाणवत् घटस्य जननदर्शनात्। तुल्यपरिमाणकयोः कपालयोः कपालद्वयम् अस्ति, अतः
तुल्य नाम समानपरिमाणं, समानपरिमाणकयोः कपालयोः नाम तत्र यदि तत्र एतत् कपालस्य तत्र संख्या नाम तत्र एका मीटर् अस्ति चेत् तत्र अन्य कपालस्य अपि समानतुल्यपरिमाणं
समानत्वेन एव स्वीकुर्मः।
हा तदा किं भवति, तदा घटस्य परिमाणं किं भवति,
त्वद्गुणितं परिमाण
तद्विगुणितं भवति,
तद्विगुणितं भवति। यथा यतोहि तत्र द्वयोः कपालयोः संयोगेन घटः उत्पद्यते, अतः तुल्यपरिमाण समानपरिमाण एव द्वयोः कृते त्वद्विगुणितं प्रमाणवत् घटस्य जननदर्शनं।
तर्हि तत्र घटस्य परिमाणं किञ्चित् अधिकं भवति कपालस्य परिमाणस्य अपेक्षया।
तत्र यत् स्वसजातीय स्व उत्कृष्टपरिमाणम् अधिकं भवति इति। इदम् एव अवयवपरिमाण अपेक्षया अवयवीनः महत्परिमाणं शास्त्रे उत्कृष्टं परिमाणम् इति व्यवह्रियते। तथैव अवयवीनः महत्परिमाणं शास्त्रे अवयवपरिमाण अपेक्षया अवयवीनः महत्परिमाणं शास्त्रे उत्कृष्टं परिमाणम् इति व्यवह्रियते। तत्
उदाहरणे तत्र अवयव कः अवयवः कः अवयवी कः
अवयव इति कपालद्वयम् अवयवीन यस्मिन् अवयवः वर्तते इति प्रत्ययः तत्र, तत् अवयवी इति कपाल घटः अवयवः कपालद्वयम् अवयव कपालद्वयम् एतस्य परिमाण अपेक्षया यत् जनयते यत् निर्मितं भवति तत् अवयवी इति घटः तस्य महत् परिमाणं शास्त्रे उत्कृष्टं परिमाणम् इति व्यवह्रियते तत् स्वसजातीय स्व उत्कृष्टपरिमाणजनकत्वम् अनेन
तत्र नियमः वयं एतं नियमं तत्र वयं गतवर्गे तत्र करपत्रे पठितवन्तः. उत्तमं भगिनि, धन्यवादाः. प्रश्नः अस्ति वा? अस्तु अस्तु, स्पष्टम्. अस्तु 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 महोदय, अस्तु महोदय, चिन्ता मास्तु. अस्तु तर्हि अग्रे तर्हि शुभदा भगिनी, नमस्कारः.
नमस्ते महोदय.
नमस्कारः भगिनी. तर्हि अग्रे तत्र अग्रे सरामः. तर्हि तत्र योगेन्द्रमहोदय अग्रे पठति वा? एवं च इति आरभ्य.
एवं च यथा कपालद्वयसंयोगः कपाले समवायेन स्थित्वा तत्र एव घटं जनयति, यथा वा एकत्वं घटे समवायेन स्थित्वा तत्र एव समवायेन द्वित्वं जनयति, तथा एव कपालपरिमाणम् अपि कपाले समवायेन स्थित्वा घटपरिमाणं जनयति इति. कपालपरिमाणम् अपि असमवायि कारणम्, परन्तु अत्र अस्ति कश्चित् विशेषः.
तर्हि तत्र प्रथम उदाहरणं किम् अस्ति अत्र?
कपालद्वयस्य उदाहरणमस्ति. कपालद्वय यदा संयोगः भवति तदा समवायेन तत्र एव स्थित्वा घटं जनयति. घटं यदा जनयति तथा समवायेन एकत्वम् इति भवति.
महोदय तत्र उदाहरणं, प्रथम उदाहरणम् एतत् एव अस्ति, यथा इति आरभ्य
स्थित्वा तत्र एव घटं जनयति इति.
तर्हि वदतु महोदय.
तदनन्तरं
एतत् उदाहरणं किम् इति वदतु, नाम यथा कपालद्वयसंयोगः इति तत् सः भागः अर्थः कः?
कपालेन समवायेन स्थित्वा तत्र घटं जनयति. तो कपालद्वयस्य यदा संयोगः भवति, संयोगः भवति सः समवायेन, सः संयोगः समवायेन स्थित्वा घटं जनयति.
तर्हि तत्र अत्र एतत् उदाहरणं कस्य उदाहरणम् अस्ति? तत्र कपालद्वयसंयोगः अपि घटम् इति, तत्र घटं जनयति,
घटस्य जननं भवति समवायकारणेन कपालद्वयसंयोगेन, संयोगः
समवायकारणं. तर्हि घटः इति कार्यं खलु?
घटः इति कार्यं,
कार्यं घटः इति कार्यं, समीचीनम्. यत्र कार्यकारणभावः अस्ति, अस्माकं तत्र नियमः कः? तत्र प्रथमतया कारणं किम् इति वक्तव्यं, कार्यं किम् इति वक्तव्यम्, अपि अन्यः अंशः कः? तृतीय अंशः कार्यकारणभावः अस्ति इति यदि चिन्तनं कुर्मः, एकमस्ति कार्यम्, एकमस्ति कारणम्, अस्ति
अधिकरणम्.
अधिकरणं, तत्र अधिकरणम् अपि तदनन्तरं सम्बन्धः, समीचीनं महोदय. किन्तु अधिकरणमपि अपेक्षितं. तर्हि अत्र घटः इति किं भवति? अत्र कार्यं वा कारणं?
कार्यं भवति.
कार्यम्, अस्तु, समीचीनं. तत्र अपि तत्र कारणं किम् इति उक्तम् अत्र?
कपालद्वयसंयोगः.
अत्र अत्र क्षम्यतां, कपालद्वयसंयोगः, समीचीनम्. अपि अधिकरणं किम् अस्ति अत्र?
घटः.
न, घटः एव कार्यं खलु?
आम्.
कपालद्वयसंयोगः कुत्र अस्ति?
कपालद्वयसंयोगः कपाले अस्ति.
केन सम्बन्धेन अस्ति? उत्तमं, संयोगः गुणः, अतः समवायेन अस्ति, समवायेन कपाले स्थित्वा, कपाले समवायेन स्थित्वा, तर्हि कपाले संयोगः अस्ति. अपि तत्र स्थित्वा, तत्र एव नाम अधिकरणं कपालः एव, तत्र किं जनयति?
घटं जनयति
घटं जनयति उत्तमं महोदय तर्हि तत्र वयं जानीमः इदानीं तत्र अत्र संयोगः भवति कारणम् अत्र भवति कपालः अत्र भवति घटः खलु हा समीचीनम् इदानीं द्वितीय उदाहरणं किम् अस्ति
यथा वा एकत्वं घटे समवायेन
तत्र संयोगः इति उक्तं किन्तु एतत् असमवायीकरणं वा समवायीकरणं वा घटस्य संयोगः
समवायीकारणं
न समवायीकरणं सर्वदा आश्रयः खलु महोदय अवयवः एव तत्र समवायीकरणं खलु घटस्य घटस्य समवायीकरणं किम् अस्ति
कपालः
कपालः भिन्नं भिन्नः खलु महोदय संयोगः भिन्नः खलु महोदय
अस्तु
तर्हि कपालः समवायीकारणं किन्तु संयोगः किं भवति घटं प्रति
असमवायिकारणं
हा असमवायिकारणं समीचीनं हा तर्हि घटस्य समवायिकारणमस्ति कपालः घटस्य असमवायिकारणमस्ति कपालसंयोगः इदानीं तथैव तत्र एकत्वमिति
यथा वा एकत्वं घटे समवायेन स्थित्वा तत्र एव समवायेन द्वित्वं जनयति
तर्हि तत्र कार्यं किं कारणं किम् अपि अधिकरणं किम् इति वदति वा
अधिकरणम् अस्ति एकत्वम्
अस्तु अस्तु अन्य कोऽपि सहायं कुर्यात् महोदय पुनः भवान् तदनन्तरं वदतु तर्हि चिन्ता मास्तु तर्हि तत्र किन्तु एतादृशवाक्यस्य अभ्यासः बहुवा करणीयः अस्ति तर्हि तत्र शोभा भगिनी तत्र यथा वा एकत्वम् इति तत्र किञ्चित् सहायं करोतु भगिनी तत्र किमस्ति कार्यं किं कारणं किम् अधिकरणं किम् इति अत्र
यथा वा एकत्वम् अस्तु महोदय यथा वा एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वित्वं जनयति तथा एव कपालपरिमाणमपि कपाले
तावदेव
अस्तु तर्हि तत्र हा इदानीम् एकत्वम् इति समवायेन स्थित्वा समवायेन द्वित्वं जनयति
तर्हि तर्हि तत्र कार्यं किं
तत्र पुनः कार्यं तु घटः एव
न तत्र वाक्यं पुनः पश्यतु भगिनि तत्र
क्षम्यतां महोदय एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वित्वं जनयति द्वित्वम् इति कार्यं भवति महोदय द्वित्वम् इति कार्यं भवति एकत्वम् एव तत्र कारणं भवति यतोहि समवायेन स्थित्वा द्वित्वं जनयति
समीचीनं तर्हि एकत्वम् इति कारणं
द्वित्वम् इति
कार्यं
कार्यम्
अधिकरणम्
अधिकरणं तु द्वयोः कृते घटः एव भवति खलु महोदय
घटे घटे अपि सम्बन्धः
समवायसम्बन्धः
समवायसम्बन्धः द्वयोः सम्बन्धः तत्र समवायः एव समीचीनं हा इदानीं तथैव इदानीं तथैव इदानीं
तथैव कपालपरिमाणम् अपि कपाले समवायेन स्थित्वा घटपरिमाणं जनयति इति कपालपरिमाणमपि असमवायिकारणम् इदानीं वदतु महोदय
अत्र कार्यं किं कारणं किं
हा तत्र यतोहि पूर्वं कार्यं किम् आसीत् तत्र द्वित्वं कार्यम् आसीत्
अपि च तावत्पर्यन्तं तावत्पर्यन्तम् इदानीं तत्
जनयति तावत्पर्यन्तम्
एतत् प्रथम उदाहरणं यथा
अस्तु
कपालद्वयसंयोगः कपाले समवायेन स्थित्वा तत्रैव घटं जनयति इति वयम् अत्र प्रदर्शितवन्तः इदानीं द्वितीय उदाहरणं यथा वा इति द्वितीय उदाहरणम् एकत्वं घटे समवायेन स्थित्वा
एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वित्वं जनयति
इति तत्र द्वितीय
द्वितीय उदाहरणं
तत्र एकत्वं द्वित्वम् अपि घटः इति अत्र भवति. इदानीं तृतीय उदाहरणं
तृतीय उदाहरणम् आम् तथा एव कपालपरिमाणमपि कपाले समवायेन स्थित्वा तत्र पूर्वस्मिन् वर्गे यथा पठितवन्तः कपाले परिमाणम् अस्ति कपाले समवायेन तिष्ठति अपि च स्थित्वा घटपरिमाणं जनयति इत्युक्ते तत्र उत्कृष्टमपि भवति इति पठितवन्तः.
समीचीनं तर्हि तत्र
घटपारम्
इस्मिन् भागे कार्यं किं कारणं किम्
तत्र अस्तु एकक्षणं महोदय तत्र एकत्वेन द्वित्वं भवति चेत्
तत्सर्वं तत्सर्वं त्यजतु
त्यजतु अस्तु तत्र अस्तु अस्तु
उदाहरणं भिन्नं द्वितीय उदाहरणं
कपालपरिमाणं कपालपरिमाणम् एव इदानीं कपाले समवायेन तिष्ठति इति कृत्वा तदेव तत्र कारणं भवति
कपालपरिमाणं कारणं
भवति समवायेन स्थित्वा घटपरिमाणं जनयति इति घटपरिमाणं कार्यं भवति
घटपरिमाणं कार्यम् अस्ति कपालपरिमाणं कारणम् अस्ति इदानीं अधिकरणम् किम् अस्ति
तत्र अधिकरणं पुनः तत्र घटः एव भवेत् इति घटपरिमाणं जनयति घटपरिमाण तत्र कपालः कपाले स्थित्वा कपाले अस्ति घटपरिमाणं जनयति इति घटपरिमाणं तु घटे एव जनयति खलु
उत्तमं भगिनि समीचीनं अतः नाम अत्र प्रश्नः उदेति खलु कपालपरिमाणं कुत्र अस्ति
घटे
न कपालपरिमाणं
कपाले अस्ति
घटपरिमाणं कुत्र अस्ति
घटे भवति
घटे अस्ति तर्हि तत्र तयोः अधिकरणं समानं नास्ति
समानाधिकरणं भवति
कुत्र कथम् एकस्य कपालस्य कपालपरिमाणस्य अधिकरणं कपालः घटपरिमाणस्य अधिकरणं
घटः अत्र समानाधिकरणं न भवति तयोः
अस्ति तर्हि किन्तु
अतः असमवायिकारणम् इति उच्यते तत्र
किन्तु असमवायिकारणम् इति वक्तुं कारणमिति वक्तुम् इच्छामः कारणमिति वक्तुम् इच्छामश्चेत् तत्र समानाधिकरण्यं भवेत्
आम्
किन्तु अत्र समानाधिकरणं न दृश्यते सः एव विशेषः तत्र समानाधिकरण्यं समानाधिकरणं भवेत् इति नाम यथा सुलभतया वयम् अत्र अधिकरणं किम् इति दृष्टवन्तः प्रथम उदाहरणे द्वितीय उदाहरणे तथैव अत्र अधिकरणं सरलतया न दृश्यते तत्र कपालः अधिकरणं वा अत्र कपालः अधिकरणमस्ति कपालपरिमाणस्य घटपरिमाणस्य अधिकरणं घटः अस्ति तर्हि कथं वा वयं वदामः तत्र अधिकरणं समानम् इति प्रश्नः अतः एव तत्र विशेषः अतः एतद् तत्र प्रथम उदाहरणं तत्र संयोगः घटं जनयति समवायेन स्थित्वा कपाले इति तत् अस्ति असमवायिकारणम् एकत्वं द्वित्वं जनयति घटे स्थित्वा तदपि असमवायिकारणमस्ति किन्तु एतद् उदाहरणद्वयं प्रथमविध असमवायिकारणमस्ति किन्तु एतत् कपालपरिमाणम् अपि घटपरिमाणं जनयति इति एतदपि असमवायिकारणमस्ति किन्तु द्वितीयविद असमवायिकारणम् एतद् वयम् एतावत् न पठितवन्तः नूतनविषयः
अस्तु अस्तु
अतः एव तत्र क्लेशः भवति नाम कथं वा अधिकरणं समानं भवेत् इति तत्र चित्रे दत्तमस्ति अत्र परिमाणस्य अधिकरणं कपालः घटस्य परिमाणस्य अधिकरणं घटः अत्र वयं वक्तुम् इच्छामः तत्र एतत् कारणमस्ति एतत् कार्यमस्ति अत्र कारणता अस्ति अत्र कार्यता अस्ति किन्तु तत्तु अस्ति इति जानीमः कारणता कार्यता अस्ति एव किन्तु तत् कथं साधितुं शक्नुमः इति प्रश्नः अपि कीदृशं कारणम् अस्ति यथा तत्र एकत्वं संयोगः प्रथम अपि द्वितीयोदाहरणम् आसीत् तथैव अस्ति वा अथवा भिन्नम् उदाहरणम् अस्ति वा इति इदानीम् अस्माकं प्रश्नः. अतः तत्र करपत्रम् इति भवति. इदानीं तत्र करपत्रे वयं प्रथमतया तत्र समवायिकारणं किं प्रथमविध असमवायिकारणं किम् इति तस्य पुनस्मरणं कृत्वा अग्रे द्वितीयविध असमवायिकारणं किम् इति द्रक्ष्यामः. तर्हि इदानीं धन्यवादः भगिनि. इदानीं इदानीम् अत्र भवान् पठितुं शक्नोति इति मन्ये. दृश्यते वा महोदय एतत्?
दृश्यते, पश्यामि.
अस्तु एकनिमिषः. तत् अस्तु महोदय.
कार्यकारणभावः च द्वितीयम् असमवायिकारणम्. कार्यकारणभावस्य कथनावसरे लक्ष्यं किम्? एकस्मिन् अधिकरणे कार्यस्य च कारणस्य च वृत्तित्वम् इत्युक्तौ केन सम्बन्धेन कारणम् अधिकरणे पुनः केन सम्बन्धेन कार्यम् अधिकरणे इति वक्तव्यम्. कुत्रचित् द्वयोः कार्यकारणयोः सम्बन्धः अधिकरणे साक्षात् सिद्ध्यति, पुनः कुत्रचित् एकस्य साक्षात् एकस्य परम्परया. किन्तु यत्र कार्यकारणभावः आनुभविकः तत्र कथञ्चित् आनुभविकः तत्र कथञ्चित् अधिकरणे कार्यस्य कारणस्य च सम्बन्धः साधनीयः एव. अस्मिन् विषये अत्र चिन्तनं भविष्यति. अत्र उक्तमस्ति यत्र कार्यकारणभावः अस्ति तत्र एकस्मिन् अधिकरणे कार्यस्य अपि कारणस्य वृत्तित्वम् अतः अवर्तते इत्युक्ते सम्बन्धः तत्र अस्ति समवायसम्बन्धेन वा संयोगसम्बन्धेन.
अस्य वाक्यस्य अर्थः कः?
एकस्मिन् अधिकरणे कार्यस्य च कारणस्य कारणस्य वृत्तित्वम् अस्ति अतः यदा
अर्थः कः?
वयम् उदाहरणं पठितवन्तः तत्र कपालसंयोगः.
अस्य वाक्यस्य अर्थः कः?
एकस्मिन् अधिकरणं समानाधिकरणम् अस्ति. एकस्मिन् अधिकरणे अस्ति कार्य
अधिकरणे कार्यमपि अस्ति कारणमपि अस्ति.
अस्ति
समीचीनं. वृत्तित्वं वर्तते. अग्रे
इत्युक्तौ केन सम्बन्धेन कारणम् अधिकरणे पुनः केन सम्बन्धेन कार्यम् अधिकरणे अस्ति इति वक्तव्यम्.
तर्हि तत्र वयं जानीमः नाम कार्यमस्ति कारणमपि अस्ति तयोः अधिकरणं समानम्. अतः एकस्मिन् अधिकरणे कार्यमपि अस्ति कारणमपि अस्ति. तर्हि प्रश्नः कः उदेति?
केन सम्बन्धेन तयोः अधिकरणे वृत्तित्वमस्ति वर्तते.
स्वशब्दैः वदतु. तर्हि तत्र केन सम्बन्धेन
अधिकरणे वर्तते?
कारणं केन सम्बन्धेन अधिकरणे वर्तते?
कार्यं केन सम्बन्धेन अधिकरणे वर्तते
इति वक्तव्यमस्ति. तदेव लक्ष्यं नाम तत्र सम्पूर्णतया यदि वयं कार्यकारणभावस्य सम्पूर्णविवरणं कर्तुम् इच्छामः तर्हि कारणं कार्यम् अधिकरणं सम्बन्धः अस्माभिः सर्वं वक्तव्यमस्ति खलु. तदा एव स्पष्टता भवति. अस्तु इदानीम् अग्रे.
कुत्रचित् द्वयोः कार्यकारणयोः सम्बन्धः अधिकरणे साक्षात् सिद्ध्यति.
यतो वयं दृष्टवन्तः नाम तत्र कपालसंयोगः घटस्य कारणं. तत्र घटः इति कार्यं कपालसंयोगः इति कार्यम् अकारणम् अपि अधिकरणं कपालः. तत्र सम्बन्धः कः?
संयोगसम्बन्धः.
न न न न संयोगः तत्र कपालसंयोगः क्षम्यतां नाम कपालसंयोगः घटः कपालः घटः केन सम्बन्धेन कपाले अस्ति
समवायिसम्बन्धेन
समीचीनं हा संयोगः केन सम्बन्धेन कपाले अस्ति
संयोगः
संयोगः कीदृशपदार्थः द्रव्यं वा अभावः वा आकाशः वा क्रिया वा कर्म वा किमस्ति संयोगः
संयोगः
गुणः
गुणः महोदय समीचीनम् इदानीं
गुणः अस्ति
हा संयोगः गुणः अस्ति अतः गुणः द्रव्ये केन सम्बन्धेन तिष्ठति
समवायसम्बन्धेन
समवायसम्बन्धेन अत्र अतः अस्मिन् उदाहरणे जानीमः सर्वं जानीमः समवायसम्बन्धः इति अतः कुत्रचित् द्वयोः सम्बन्धः अधिकरणे साक्षात् सिद्ध्यते किमपि कर्तव्यं नास्ति अत्र खलु जानीमः केन सम्बन्धेन अस्ति इति अस्तु पुन् अग्रे पुनः
पुनः कुत्रचित् एकस्य साक्षात् एकस्य परम्परायाः
अन्यत्र किं भवति अत्र साक्षात् सुलभतया सम्बन्धः कः इति जानीमः किन्तु पुनः कुत्रचित् अन्यत्र किं भवति
कुत्रचित् साक्षात् एकस्य साक्षात् ज्ञातुं शक्नुमः एकस्य परम्पराया ज्ञातुं शक्नुमः
हा नाम एकस्य सुलभतया ज्ञातुं शक्नुमः अन्यस्य परम्परा इति उक्त्वा तेन वयं तत्र सम्बन्धः कः इति तत्र ज्ञातुं शक्नुमः अग्रे
किन्तु यत्र कार्यकारणभावः आनुभविकः तत्र कथञ्चित् अधिकरणे कार्यस्य कारणस्य च सम्बन्धः साधनीयः एव
नाम
यत्र कार्यकारणभावः आनुभाविकः तत्र सम्बन्धसाधनीयः
आनुभविकः नाम
आनुभविकः नाम साक्षात् न जानामि
अनुभवः भवति तस्य अनुभवः भवति नाम कपालपरिमाणम् अपि घटपरिमाणं द्वयोः मध्ये कार्यकरणभावः अस्ति वा अस्ति इति अङ्गीकरोति वा अथवा नास्ति किं कपालपरिमाणं घटपरिमाणम् कार्यकरणभावः अस्ति अथवा नास्ति योगेन्द्रमहोदय
अस्ति महोदय
अस्ति हा अत्र आनुभविकः अस्ति वयं जानीमः दृष्ट्वा कपालस्य यदि बृहत्परिमाणं घटस्य अपि बृहत्परिमाणं कपालस्य लघुपरिमाणं घटस्य लघुपरिमाणं हा कपालस्य बृहत् चेत् घटस्य बृहत् कपालस्य लघु चेत् घटस्य लघु तर्हि तत्र कार्यकारणभावः अनुभवामः तत्र यत्र अनुभवामः तत्र किं करणीयम् अस्माभिः
सम्बन्धः साधनीयः
हा कः सम्बन्धः साधनीयः
कार्यकारणभावः कार्यस्य कारणस्य च सम्बन्धः
केन सम्बन्धेन अधिकरणे वर्तते इति साधनीयः यत्र वयम् अनुभवामः अस्तु एतत् कारणमस्ति एतत् कार्यमस्ति एतत् अधिकरणमस्ति किन्तु यत्र तादृशमस्ति किन्तु सम्बन्धः न जानीमः साक्षात् किन्तु कार्यकारणभावः अस्ति इति अनुभवामः तदा तत्र साधनीयमस्ति अस्माभिः केन सम्बन्धेन वर्तते, केन सम्बन्धेन वर्तते न दृश्यते किन्तु केनापि सम्बन्धेन तत्र भवेत् एव, सः सम्बन्धः कः इति तत्र द्रष्टव्यः, अपि सः सम्बन्धः साधनीयः। नो चेत् तत्र सम्बन्धः एव न दृश्यते चेत् कार्यकारणभावः अस्ति इति न वक्तुं शक्नुमः। अतः कार्यकारणभावः अनुभवामः, तदस्ति इति वक्तुम् इच्छामः, तर्हि प्रदर्शनीयः अस्ति सम्बन्धः कः इति। अस्तु, समीचीनं महोदय, अस्तु अग्रे धन्यवादः। अस्तु अग्रे धन्यवादः महोदय।
कार्यकारणभावस्य तस्मात् वा?
सत्यं भगिनि,
ततः अस्तु अस्तु। कार्यकारणभावस्य प्रकटीकरणार्थम् अपेक्षते एकं कार्यकारणभावार्थ भावार्थं वा भावार्थ
कार्यकारणभावार्थं
कार्यकारणयोः सामानाधिकरण्यम् अपेक्षितम्। कार्यकारणभावार्थं कार्यकारणयोः सामानाधिकरण्यम् अपेक्षितं। तत् सामानाधिकरण्यं वक्तव्यं चेत् एकस्मिन् अधिकरणे कार्यं कारणं च भवतः इति बोध्यम्। कार्यं कारणं च एकस्मिन् अधिकरणे इति प्रकटीकरणार्थं द्वे अपि केन सम्बन्धेन अधिकरणस्थः इति अपि वक्तव्यम्। केन सम्बन्धेन कार्यम् अधिकरणे तस्मिन्नेव च अधिकरणे केन सम्बन्धेन कारणं भवति इति इदानीं विचारणीयं। कार्यम् अपि च कारणम् अस्तु। कारणकारणभावस्य प्रकटीकरणार्थं किम् अपेक्षते इत्युक्ते सामाजानाधिकरणे अपेक्षते इत्युक्ते एकस्मिन्नेव अधिकरणे कार्यं भवेत् अपि च कारणमपि भवेत् इति। अस्तु, द्वे अपि अग्रे च केन सम्बन्धेन कार्यम् अधिकरणे अस्ति, केन सम्बन्धेन कार्यम् अधिकरणे अस्ति, एतदपि अस्माभिः ज्ञातव्यम्।
उदाहरणं तदा एव तत्र तदा एव तत्र कार्यकारणभावः सिद्ध्यति, तत्र स्पष्टतया अवगच्छामः तत्र कार्यकारणभावः तयोः मध्ये वर्तते इति। नाम केवलं एतत् यदि स्पष्टं न भवति तत्र मनसि क्लेशः भवति, कार्यम् एतत् वस्तुतः कारणं वा अथवा केवलं तत्र मम भ्रमः वा तत्र कारणम् इति भासते किन्तु साक्षात् कारणं नास्ति वा इति, तादृशक्लेशः मास्तु। स्पष्टता यदि अस्ति तत्र कार्यं कारणम् अधिकरणम् अपि
सम्बन्धद्वयं तयोः मध्ये कः सम्बन्धः
इति केन सम्बन्धेन अधिकरणे वर्तते इति यदि सम्यक्तया जानीमः तत्र स्पष्टता भवति, स्पष्टतया आमाम कार्यकारणभावः अत्र वर्तते इति वक्तुं शक्नुमः वयं। समीचीनम्, अस्तु अस्तु समीचीनं भगिनि, धन्यवादः। अग्रे तर्हि तत्र शोभभगिनी तत्र अग्रे तत्र प्रथम अत्र अग्रे उदाहरणानि समवायिकारणस्य इति पठति वा?
आं महोदय, समवायिकारणं यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणम्। अवयव अवयविनोः गुणगुणिनोः क्रियाक्रियवतोः जातिव्यक्त्योः विशेषनित्यद्रव्योः च समवायसम्बन्धो भवति
इति स्मरणम् इति पुनस्मरणम्
इति पुनस्मरणम् आम्। अत्र इदानीम् उदाहरणानि घटः कपालः, घटं प्रति कपालः समवायिकारणं भवति, अधिकरणं कपालः, घटः कपाले, कपालः कपाले स्वस्मिन्, समवायसम्बन्धेन घटं प्रति तादात्म्यसम्बन्धेन कपालः कारणम्, अनेन कार्यकारणभावः साधितः। तत्र तत्र यथा पूर्वं वयं दृष्टवन्तः कपालः तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायसम्बन्धेन घटं जनयति, घटस्य कारणं भवति इति. तदेव तत्र कपालः तादात्म्येन घटकपालयोः उदाहरणं नयामः चेत् कपालः तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायेन कार्यं जनयति इति, घटं जनयति इत्युक्ते कार्यं जनयति इति समवायकारणं भवति, कारणं भवति घटं प्रति. अतः तत्र अधिकरणं तत्र कपालः, घटः कपाले, कपालः कपाले. तत्र घटः कपाले वर्तते, अपि च कपालः तु तादात्म्यसम्बन्धेन स्वस्मिन् एव वर्तते.
तर्हि एषः सम्बन्धः तादात्म्यसम्बन्धः,
तादात्म्यसम्बन्धः कपालयोः, हा तादात्म्यसम्बन्धः. अपि च
घटः, घटः कपाले,
घटः कपाले समवायसम्बन्धेन अस्ति.
किमर्थं घटः कपाले समवायसम्बन्धेन अस्ति? यतोहि
तत्र अधिकरणं किं, तत्र समवायसम्बन्धेन घटं प्रति तादात्म्यसम्बन्धेन कपालः कारणम्, अनेन कार्यकारणभावः.
सरलप्रश्न नाम तत्र घटः केन सम्बन्ध, किमर्थं समवायसम्बन्धेन कपाले अस्ति? नाम घटः कपालयोः मध्ये किमर्थं तत्र समवायसम्बन्धः वर्तते?
घटक यतोहि तत्र कपालयोः संयोगेन घटः उत्पद्यते.
किन्तु यत् यत् वाक्यं भवती पठितवती तेनैव वदतु. तत्र भवती एकं वाक्यं पठितवती, तत्र कुत्र कुत्र समवायसम्बन्धः भवति?
यथा यदा तत्र गुणः भवति चेत् समवायसम्बन्धः भवति,
किन्तु
गुणगुणिने गुणगुणिनोः भवति. अस्तु, अत्र तु अवयव अवयविनोः इति अपि उक्तं. तर्हि तत्र अवयवी अवयवी घटः, अवयवः कपालः, अतः तयोः मध्ये समवायसम्बन्धः
भवति इति जानीमः. नाम समवायसम्बन्धः केवलं पञ्चषु स्थलेषु एव भवति.
आम् आम्,
अवयव अवयविनोः
अवयविनोः गुणगुणिनोः
गुणिनोः मध्ये क्रिया नाम
क्रिया क्रियवतोः
क्रियायाः आश्रयः क्रियावत् क्रियावतोः अपि
जातिव्यक्तियोः जातिव्यक्तिः तयोः
नाम घटत्वम् इति जातिः घटे वर्तते तत्र समवायसम्बन्धेन वर्तते घटत्वम् इति जातिः. अपि विशेषः पदार्थः
नित्यद्रव्ये
एव वर्तते नाम परमाणुषु आकाशे 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 नास्ति किन्तु परमाणुषु तत्र नित्यद्रव्ये वर्तते विशेषः अतः तत्र समवायसम्बन्धः वर्तते इति. केवलं पञ्चषु स्थलेषु एव तत्र समवायसम्बन्धः भवति. अतः तत्र समवायसम्बन्ध तत्र सम्बन्धः समवायः कपालः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते इति कृत्वा तत्र समवायिकारणम् अपि समवायिकारणस्य वर्णनं कीदृशं भवति? तत्र लक्षणवाक्यं किं तत्र?
समवायसम्बन्धेन घटं प्रति तादात्म्यसम्बन्धेन कपालः कारणम् इति. इत्युक्ते तत्र घटं प्रति कपालः कारणम् इति विषयः. केन सम्बन्धेन इत्युक्ते समवायसम्बन्धेन घटं प्रति तादात्म्यसम्बन्धेन कपालः कारणम् इति भवति. इत्युक्ते
यत्र एतादृशं वाक्यं पश्यामः तत्र आकृतिः कीदृशी नाम तादात्म्यसम्बन्धेन कपालः कारणम् इति यदि पश्यामः तर्हि तेन वयं किम् अवगच्छामः?
समवायिकारणम् इति वा महोदय?
न कपालः कारणमस्ति तत्र तादात्म्यसम्बन्धेन इति लिखितमस्ति. तर्हि तत्र तादात्म्यसम्बन्धः सम्बन्धेन कपालः कारणम् इति उक्तं तर्हि तत्र एतेन एतद् एषः भागः किं सूचयति तत्र अधिकरणे कारणम् अधिकरणे तादात्म्यसम्बन्धेन वर्तते इति सूचयति खलु नाम कपालः कारणं घटः कार्यं किन्तु वयं पूर्वं पठितवन्तः केन सम्बन्धेन इति वक्तव्यं स्पष्टतया वक्तव्यं तदेव उक्तं तादात्म्यसम्बन्धेन कपालः कारणम् इति यदि पश्यामः पठामः वयं जानीमः अस्तु कपालः अधिकरणे तादात्म्यसम्बन्धेन वर्तते समयसम्बन्धेन घटं जनयति तर्हि वयं किम् अवगच्छामः घटः समवायसम्बन्धेन
घटः समवायसम्बन्धेन कपाले तिष्ठति इति
वा
अधिकरणे तिष्ठति इति
अधिकरणे अस्ति अत्र कपालः इति यदि वदामः तत्र कारणं वा अधिकरणं वा इति क्लेशः भवति अतः कारणं तादात्म्यसम्बन्धेन अधिकरणे वर्तते कार्यं समवायसम्बन्धेन वर्तते इति अवगच्छामः खलु एतादृशं वाक्यं यदि पठामः
अस्तु कपालः कारणं कारणं तादात्म्यसम्बन्धेन वर्तते
अधिकरणे
तस्मिन् एव अधिकरणे अस्तु इदानीं कपालः तादात्म्यसम्बन्धेन कपाले एव तिष्ठति इति कृत्वा कपालः अधिकरणमपि भवति कारणमपि
भवति
अस्तु
अपि
अपि घटः घटः समवायसम्बन्धेन कपाले तिष्ठति
अत्र तत्र एतादृशं वाक्यं यदि पश्यामः तत्र कपालः घटः इति त्यक्त्वा तत्र यदि कार्यम् अपि कारणमिति मनसि स्थापयामः कारणं तादात्म्यसम्बन्धेन अधिकरणे वर्तते कार्यं समवायसम्बन्धेन वर्तते इति अवगच्छामः तदनन्तरं तत्र तादात्म्यम् इति उक्त्वा इति कारणेन वयं जानीमः कपालः एव अधिकरणमपि इति किन्तु तत्र अधिकरणम् इति भिन्नं मनसि भवेत् आरम्भे नो चेत् तत्र समीचीनं वा भगिनि नाम तत्र
आं महोदय
नाम तत्र
किञ्चित् भ्रमः अभवत् तत्र
यद्यपि अधिकरणमपि कारणम् अत्र समानः अस्ति किन्तु यत्र कार्यकारणभावः सम्यक्तया वक्तुम् इच्छामः तत्र कारणम् अधिकरणं कार्यम् इति यदि वदामः स्पष्टं भवति नो चेत् केवलं कपालः इति वदामः तत्र कपालः तत्र किं सूचितं कपालः इति तत्र अधिकरणम् इति चिन्तयति वा अथवा कारणम् इति चिन्तयति वा इति भ्रमः भवति अतः तत्र अधिकारणं नाम कपालः अधिकरणे तादात्म्यसम्बन्धेन वर्तते घटः इति कार्यं समवायसम्बन्धेन अधिकरणे वर्तते एतद्
तत्र अधिकरणं तु कपालः एव खलु महोदय
सत्यं सत्यं किन्तु वाक्यस्य अर्थः वाक्यस्य उद्देशः कः केन सम्बन्धेन
केन
अधिकरणे अस्ति केन सम्बन्धेन कार्यम् अधिकरणे अस्ति इति उच्यते वदति खलु
आमाम् यथा भवान् उक्तवान् तत्र समयसम्बन्धेन कार्यम् अधिकरणे तिष्ठति तादात्म्यसम्बन्धेन कारणम् अधिकरणे तिष्ठति तथा स्मरामः चेत् सौलभ्यं भवति इति
सौलभ्यं भवति तदेव तत्र समवायकरणस्य लक्षणं नाम स्वस्मिन् इति अस्ति किन्तु तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति इति अस्ति चेत् तत्र तादात्म्यसम्बन्धः अत्र समवायसम्बन्धः अत्र तर्हि यत् अत्र अस्ति तदेव अत्रापि अस्ति किन्तु
तत्र एव मम भ्रमः अभवत् महोदय समवायेन कार्यं जनयति इति अस्ति
अत्र नाम समवायेन कार्यं जनयति नाम एषः सम्बन्धः समवायः नाम समवायेन कार्यं जनयति इत्युक्ते कार्यं समवायसम्बन्धेन अधिकरणे अस्ति तादात्म्येन सम्बन्धेन स्थित्वा तर्हि कारणं तादात्म्येन स्थित्वा तर्हि कारणं तादात्म्यसम्बन्धेन अधिकरणे वर्तते
अस्तु
इति अतः तत्र एतादृशं वाक्यं पठामश्चेत् स्थित्वा इति पूर्वं कारणं भवति तदनन्तरं जनयति इति कार्यं भवति यत् यः यः सम्बन्धः तत्र वर्तते तेन सम्बन्धेन तद्वद् अधिकरणे वर्तते इति जानीमः
अधिकरणे वर्तते अपि च तत्र तस्मिन् वाक्ये स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति यत् इति हा तत् समवायिकारणं भवति इति
अतः अत्र कपालः
समवायि
घटस्य समवायि
समवायिकारणं भवति अस्तु
भवति इति समीचीनम् अस्तु
धन्यवादः महोदय
अस्तु अग्रे तत्र पद्मा भगिनी इदानीं तत्र द्वितीय घटपरिमाणं घटः इति
घटपरिमाणं घटः परिमाणं प्रति घटः समवायिकारणं भवति घटे परिमाणम् अस्ति घटस्य परिमाणस्य च समान अधिकरणीयं
समानं
घटः यस्मिन् अधिकरणे अस्ति तस्मिन् अधिकरणे परिमाणमपि अस्ति समवायिसम्बन्धेन परिमाणं प्रति तादात्म्यसम्बन्धेन घटः कारणम् अनेन कार्यकारणभावः साधितः घटः अस्ति अनन्तरं परिमाणमस्ति परिमाणं प्रति घटपरिमाणं प्रति घटः एव समवायिकारणमस्ति इति
तर्हि कारणं घटः कार्यमस्ति घटपरिमाणं
कार्यं घटः अधिकरणमस्ति घटः
अधिकरणमपि अस्ति घटः समीचीनं
कारणमपि घटः तत्र घटः अधिकरणे तादात्म्यसम्बन्धेन अस्ति सम्बन्धेन अस्ति अनन्तरं परिमाणमपि घटे स्थित्वा परिमाणं जनयति घटः घटे तादात्म्यसम्बन्धेन स्थित्वा घटपरिमाणं जनयति अतः घटपरिमाणं प्रति घटः समवायिकारणं भवति
समीचीनं किन्तु तत्र परिमाणं केन सम्बन्धेन अधिकरणे वर्तते इति अपि वक्तव्यम्
घटपरिमाणं घटे समवायसम्बन्धेन अस्ति
समीचीनम् अतः घटः तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा
घटः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन घटं जनयति
परिमाणं घटपरिमाणं
परिमाणं जनयति
इति भवति उत्तमं भवति इति भवति
अधिकार्यमस्ति अधिकरणम् अस्ति घटः एव समान अधिकरणं तत्र घटः अपि घटे तादात्म्यसम्बन्धेन भवति घटपरिमाणमपि घटे अस्ति समवायसम्बन्धेन
अस्ति इति भवति समीचीनं तर्हि तत्र समवायसम्बन्धेन परिमाणं प्रति इति तत्र परिमाणं कार्यं तर्हि समवायसम्बन्धः कार्यं समवायसम्बन्धेन वर्तते घटः कारणं तर्हि कारणं तादात्म्यसम्बन्धेन अधिकरणे वर्तते इति अवगच्छामः समीचीनं भगिनि अस्तु अग्रे धन्यवादः भगिनि अग्रे चन्द्रमती भगिनि इदानीं कपालपरिमाणं
कपालः समवायसम्बन्धेन कपालपरिमाणं प्रति तादात्म्यसम्बन्धेन कपालः कारणम् अभ्यासः पडः तन्तुः
एतत् अवगच्छामः खलु यथा तत्र घटस्य आसीत् तथैव एतदपि अस्ति खलु घटं परिमाणं प्रति घटः कारणं तथैव कपालपरिमाणं प्रति कपालः कारणं खलु
समवायसम्बन्धेन कपालपरिमाणं प्रति तादात्म्यसम्बन्धेन कपालः कपालः कपाले तादात्म्यसम्बन्धेन वर्तते कपालपरिमाणं कपाले समवायसम्बन्धेन
इति समीचीनं हा इदानीम् अग्रे तत्र पटः तन्तुः तयोः तत्र कीदृश तत्र एतादृशं वाक्यं वदतु
तन्तवः तन्तौ तादात्म्यसम्बन्धेन वर्तते तन्तवः पटे समवायसम्बन्धेन वर्तते पटः तन्तुषु समवायसम्बन्धेन वर्तते तन्तवः तन्तौ तादात्म्यसम्बन्धेन
वर्तते समीचीनम् इदानीं वाक्यं वदतु तत्र तन्तुः
समवायसम्बन्धेन
तन्तुः स्वस्मिन् तन्तुः स्वस्मिन् इति आरभ्य तादृशं वाक्यं तन्तुः स्वस्मिन्
तन्तुः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन पटं प्रति कारणं भवति
जनयति अथवा पटं प्रति कारणं भवति उत्तमं भगिनि तथैव अस्ति समीचीनम् अस्तु धन्यवादः इदानीं भवती अग्रे पठतु किन्तु तत्र मृणालिनी पटरूपं पटः एतादृशं वाक्यं वदतु भगिनि मृणालिनी भगिनि
आम् आचार्य पटरूपं तर्हि पटरूपम् इति कार्यं पटः इति कारणम् पटः पटे तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन पटरूपं जनयति
हा उत्तमं भगिनि किमर्थं तत्र अधिकरणं किमस्ति
अधिकरणं पटः
कार्यं किमस्ति
कार्यं पटरूपम्
कारणं पटः उत्तमं भगिनि समीचीनम् अस्तु इदानीं तत्र धन्यवादः भगिनि भवती अग्रे पठतु किन्तु इदानीं चन्द्रमती भगिनी पठेत् तदनन्तरं भवती पठतु अस्तु तर्हि चन्द्रमती भगिनि इदानीम् असमवायिकारणम्
असमवायिकारणं समवायिकारणे समवायसम्बन्धेन यः गुणः अथवा या क्रिया कार्यं प्रति कारणं तत् असमवायिकारणम् समवायिकारणे समवायसम्बन्धेन यः गुणः अथवा या क्रिया कार्यं प्रति कारणं तत् असमवायिकारणम्
तर्हि तत्र अत्र यथावत् तत्र तत्र प्रथमविधम् इति उक्तं किन्तु यत् वाक्यं भवती पठितवती तत्र कार्यं किं कारणं किम् अपि अधिकरणं किम् इति किञ्चित् वदतु तेन किम् अवगम्य
अत्र अत्र पटः
न केवलं
समवायिकारणे समवायसम्बन्धेन यः गुणः संयोगः इति गुणः
उदाहरणमस्तु केवलं वाक्ये किम् उक्तम् इति वदतु
समवायिकारणे समवायसम्बन्धेन समवायिकारणं अस्ति अत्र समवायसम्बन्धेन यः गुणः अथवा क्रिया वा कार्यं प्रति कारणं कार्यं गुणः वा क्रिया वा अस्ति कार्यं यः गुणः वा क्रिया वा कार्यं प्रति कारणं
तर्हि तत्र कार्यकारणभावस्य वाक्यम् अत्र असमवायिकारणं किम् इति वदति
समवायिकारणं किम् इति
वदति खलु एतद् वाक्यं तर्हि अत्र कार्यं किमपि अस्ति खलु एकं कार्यमस्ति, तत्र कार्यं किम् इति न जानीमः, किन्तु कार्यं किमपि अस्ति.
कार्यं गुणः वा भवितुमर्हति, क्रिया वा भवितुमर्हति?
न न कार्यं न न कार्यं गुणः न भवितुमर्हति.
कार्यं द्रव्यमेव?
न न कार्यं किमपि कार्यमस्ति, कार्यं किम् इति एतावत् न उक्तं. कार्यं किमपि अस्ति. इदानीं तत्र अधिकरणम्, अधिकरणं किम् उक्तम्? तत्र कार्यकारणभावस्य स्थले कार्यं किं, कारणं किम्, अधिकरणं किम् इति वक्तव्यं खलु. अत्र अत्र अधिकरणं, तत्र सप्तमी विभक्तिपदं स्यात् खलु. अत्र किमस्ति सप्तमी विभक्तिपदम्?
समवायिकारणे, समवायिकारणं.
हा, तर्हि अधिकरणमस्ति समवायिकारणम्. समवायिकारणम् एव अधिकरणम् अस्ति अत्र खलु. यतोहि तत्र एव कार्यम् अस्ति इति उक्तं खलु. तर्हि अधिकरणमस्ति समवायिकारणम्. अपि कारणं यदि कार्यं समवायिकारणे अस्ति, तर्हि कारणमपि समवायिकारणे एव भवेत् खलु. कारणं किम् इति उक्तं, कीदृशं कारणम् उक्तम्?
गुणः वा क्रिया वा कार्यं प्रति कारणं.
समीचीनं, हा उत्तमं भगिनि. यदि तत्र गुणः वा क्रिया वा अस्ति चेत् समवायिकारणे, अपि सा क्रिया अथवा सः गुणः कार्यं प्रति कारणम् अस्ति चेत् तद् भवति असमवायिकारणं कार्यस्य. उत्तमं भगिनि. इदानीम् इदानीम् उदाहरणं पश्यामः. हा, तर्हि घटः कपालस्य योगः.
प्रथमविध खडः कपालसंयोगः. खडस्य असमवायिकारणं कपालसंयोगः. अधिकरणं कपालः. खडः कपाले, कपालसंयोगः कपाले.
तावत्पर्यन्तम्. अत्रापि क्षम्यतां,
अत्र अधिकरणमस्ति कपालः. खडः, खडस्य अधिकरणमपि कपाले अस्ति. कपालसंयोगस्य अधिकरणमपि कपाले अस्ति.
अधिकरणमपि कपालः अस्ति. कपाल अधिकरणं कपाले अस्ति इति न, अधिकरणं साक्षात् कपालः एव खलु.
कपालः एव, कपालसंयोगः कपाले, कपाले
कपालः अपि कपालः घटस्य समवायिकारणं खलु. तर्हि अधिकरणं घटस्य समवायिकारणं खलु. अत्र अधिकरणमस्ति कपालः, कपालः समवायिकारणम्. अपि अधिकरणे समवायिकारणे कः गुणः उक्तः?
कपालसंयोगः इति गुणः,
संयोगः उक्तः. अपि कपालसंयोगः कारणमस्ति खलु घटं प्रति? संयोगं विना घटस्य उत्पत्तिः भवति वा?
न.
अतः कपालसंयोगः कारणमस्ति घटं प्रति. अतः कारणं कपालसंयोगः कारणमपि अस्ति घटं प्रति. अपि कपालसंयोगः समवायिकारणे कपाले वर्तते. अतः कपालसंयोगः असमवायिकारणमस्ति घटं प्रति. हा, इति अस्ति. समीचीनं भगिनि. हा, अस्तु. इदानीम् अन्य कोऽपि, इदानीं तत्र, हा तत्र पद्मा भगिनी, इदानीं तत्र समवायसम्बन्धेन, धन्यवादः भगिनि. इदानीं तत्र कथं तस्य वर्णनं भवति इति. हा,
समवायिकारणे समवायसम्बन्धेन यः गुणः अथवा या क्रिया कार्यं प्रति कारणं तत्र समवायिकारणं. समवायिकारणम् एव अधिकरणमस्ति. तत्र कार्यं, कार्यमपि समवायिकार गुणः अथवा क्रिया वा तदेव कार्यं.
न न न न न न तत्र उदाहरणं पश्यामः. तत्र उदाहरणम् उदाहरणमस्ति घटः कपालस्य.
उदाहरणं बहु सम्यक् भवति. घटः कपालसंयोगः. अस्तु, घटः घटः कपाले समवायसम्बन्धेन अस्ति. सो कपालः एव अधिकरणं. सो कपाले घटः केन सम्बन्धेन अस्ति? समवायसम्बन्धेन अस्ति. कपालसंयोगः अपि कपाले समवायसम्बन्धेन अस्ति.
समीचीनं. कारणं किं, कार्यं किम् अत्र?
अत्र कार्यं घटः संयोगः. सो कार्यमपि समवायसम्बन्धेन अधिकरणे वर्तते. कार्यमपि समवायसम्बन्धेन अधिकरणे वर्तते चेत् कारणं कार्यं प्रति असमवायिकारणम्
अपि. तत्र अधिकरणं किं भवेत्? अधिकरणम्
अधिकरणं कपालः.
किन्तु यथा तत्र यत्र कारणमपि अधिकरणे समवायसम्बन्धेन भवति, अपि कार्यमपि समवायसम्बन्धेन भवति, अपि अधिकरणं कार्यस्य कीदृशकारणं भवेत्? अधिकरणं समवायिकारणं भवेत्. नाम घटः कार्यम् इत्युक्ते अधिकरणं घटस्य समवायिकारणं भवेत्, नाम कपालः भवेत्, तदा एव असमवायिकारणम् इति वक्तुं शक्नुमः. तर्हि
इदानीम् एतादृशं वक्तुं शक्नुमः चेत् कार्यं यत्र समवायसम्बन्धेन अस्ति तत्रैव कारणमपि समवायसम्बन्धेन अस्ति चेत् तर्हि कारणं कार्यं प्रति असमवायिकारणम्
अपि अधिकरणम् असमवायि अधिकरणं समवायि समवायिकारणं भवेत् इति. अस्तु, तर्हि नाम तत्र तदेव. अस्तु, इदानीं तत्र यथा तत्र उक्तम् अत्र समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणम् इति, तत्र किम् अवगच्छामः?
घटम् इति कार्यं, घटं प्रति समवाय कपालसंयोगः कारणम् इति चेत् घटं कपाले समवायसम्बन्धेन अस्ति, कपालसंयोगः अपि अधिकरणे कपाले समवायसम्बन्धेन अस्ति, अतः समवायसम्बन्धेन घटं प्रति कपालसंयोगः समवायसम्बन्धेन कारणं भवति.
समीचीनम्. अपि यथा वयं पूर्वम् उक्तवन्तः तत्र स्वस्मिन् तत्र कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन घटं जनयति, तादृशवाक्यम् अत्र किं भवति? कपालसंयोगः
कपालसंयोगः स्वस्मिन्
नास्ति, यतो इदानीं स्वस्मिन् नास्ति, यतोहि अधिकरणम् अस्ति कपालः
सम्बन्धेन अस्ति. अस्तु, कपालसंयोगः अधिकरणे समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति.
उत्तमं भगिनि, घटं कार्यं जनयति इति अस्ति. उत्तमं, समीचीनम्. इदानीं तत्र इदानीं शुभदा भगिनी, तत्र भवती तादृशं तत्र पटः तन्तुसंयोगः इति उदाहरणे किञ्चित् वक्तुम् इच्छति वा, प्रयत्नं करोति वा?
आं महोदय, प्रयत्नं तु करोमि.
प्रथमतः तत्र पटः तन्तुसंयोगः, तत्र कार्यं किम् इति प्रथमतः वदतु.
पटः तन्तुसंयोगः, अस्मिन् कार्यमस्ति पटः इति. तन्तुसंयोगः इति
अधिकरणम्
अधिकरणं तन्तवः इति अस्ति
इति भवति. समीचीनं.
तन्तुसंयोगः इति कारणं तन्तुषु समवायिसम्बन्धेन वर्तते. पटः इति कार्यम् अपि तन्तुषु अधिकरणे अधिकरणमिति खलु तस्मिन् समवायिसम्बन्धेन वर्तते. अतः पटः इति कार्यमस्ति, तं प्रति तन्तुसंयोगः इति कारणम् असमवायिकारणेन वर्तते इति.
असमवायिकारणं भवति. उत्तमं भगिनि, उत्तमं भगिनि, समीचीनं, सम्यक्तया उक्तं. तत्र अत्र यत् वाक्यमस्ति तत्र समवायसम्बन्धेन घटं प्रति, तादृशं वाक्यं तत्र इदानीं पटः तन्तुसंयोगः इति स्वीकृत्य वदतु.
तत् समवायसम्बन्धेन पटं प्रति समवायसम्बन्धेन तन्तुसंयोगः कारणम्
कारणम् इति भवति. समीचीनं. हा, एतद् एकम् एका विधा अस्ति. अन्या रीत्या वदामश्चेत् तत्र कपालसंयोगः तत्र अधिकरणे
कपालसंयोगः अधिकरणे नाम क्षम्यतां तन्तुसंयोगः अधिकरणे तन्तुषु समवायसम्बन्धेन वर्तते.
समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन स्थित्वा
स्थित्वा समवाय
सम्बन्धेन सम्बन्धेन
पटं जनयति.
पटं जनयति. उत्तमं भगिनि, पुनः एकवारं वदतु. तन्तुसंयोगः
तन्तुसंयोगः तन्तुषु समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन पटं जनयति.
जनयति इति अस्ति भगिनि. हा, तद् अस्ति असमवायिकारणम्. उत्तमं भगिनि, धन्यवादः. हा, अस्तु, समीचीनं. हा, इदानीम् अग्रे तर्हि तत्र उषा भगिनी, भवती एतावत् न पठितवती, तत्र पठितुं शक्नोति वा न वा?
आम् आम् महोदय.
अस्तु अस्तु, तर्हि तत्र इदानीं द्वितीय उदाहरणं हस्तपुस्तकसंयोगः
हस्तगता क्रिया. हस्तपुस्तकसंयोगः इति कारणं हस्तपुस्तकसंयोगः
तत्र अत्र किम् अस्ति? प्रथमतया कार्यम् अथवा कारणं किम् उक्तम् अत्र उदाहरणे?
पटः इति अत्र कार्यम् अस्ति. हस्तपुस्तकसंयोगः इति कार्यम् इति
अस्ति.
कार्यं
क्रियया संयोगः भवति, नाम हस्तौ भिन्नौ क्रियया. इदानीं हस्तपुस्तकयोः तत्र हस्तः अपि पुस्तकं भिन्नस्थले अस्ति. क्रियया हस्तः पुस्तकं प्रति आगच्छति, तर्हि
आगच्छति. ओ अस्तु, ओके. सो हस्तपुस्तकसंयोगः इति कार्यं भवति. देन् द कारणम् इस् द हस्त क्रिया हस्तगता क्रिया. हस्तगता क्रिया इति कारणं भवति. अण्ड् हस्तगतक्रिया अपि च हस्तपुस्तकसंयोगः द्वयोः अपि हस्त एव अधिकरणं भवति.
उत्तमं भगिनि, तर्हि क्रिया इति अस्ति अपि संयोगः इति अस्ति. तत्र विपरीततया लिखितवान्, क्षम्यतां. तत्र क्रिया इति कारणम् इति, अतः तत्र क्रिया अत्र भवेत्. हा, क्रिया अपि तत्र हस्तः. हा, तर्हि हा, तर्हि तत्र क्रिया केन सम्बन्धेन हस्ते वर्तते?
क्रिया समवायसम्बन्धेन वर्तते. क्रियाक्रियावतोः क्रियाक्रियावतोः समवायसम्बन्धेन
अपि च गुणगुणिनोः अपि समवायसम्बन्धः. समीचीनं. हा, तर्हि वाक्यं वदतु तत्र, यथा अत्र अस्ति एतादृशं वाक्यं, तादृशं वाक्यम् अत्र वदतु.
समवायसम्बन्धेन समवायसम्बन्धेन क्रिया प्रति
तत्र कार्यं किम् अस्ति?
कार्यं हस्तपुस्तकसंयोगः. हस्तपुस्तकसंयोगः इति कार्यं. सो हस्तपुस्तकसंयोगः समवायसम्बन्धेन हस्तपुस्तकसंयोगेन संयोगं प्रति समवायसम्बन्धेन क्रिया हस्तगता क्रिया कारणं भवति.
कारणं भवति. समीचीनं. हा पुनः एकवारं
असमवायिकारणम् इति.
अतः असमवायिकारणं. पुनः एकवारं वदतु वाक्यम्.
आम् हस्तपुस्तक समवायसम्बन्धेन हस्त पुस्तकसंयोगं प्रति प्रति समवायसम्बन्धेन समवायसम्बन्धेन क्रिया क्रियाकारणं भवति.
हस्तगताक्रियाकारणं भवति. हस्तगता नाम हस्ते विद्यमाना, हस्ते या क्रिया अस्ति. समीचीनम्. इदानीं यथा समीचीनं भगिनि, इदानीं तत्र अन्यरीत्या अपि तत्र वक्तव्यं, नाम यथा तत्र कपालः स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन घटं जनयति
इति समवायिकारणं.
हा तत्र समवायिकारणम्. अत्र क्रिया इति आरभ्य क्रिया
क्रिया स्वस्मिन् नाट् स्वस्मिन् क्रिया हस्तगताक्रिया हस्ते समवायेन स्थित्वा समवायेन हस्तपुस्तकसंयोगः इति कार्यं जनयति.
संयोगं जनयति. संयोगं जनयति
इत्यनेन हस्तगतक्रिया इति असमवायीकारणम् इति.
हा इति भवति संयोगस्य. उत्तमं भगिनि. हा उत्तमं. हा अस्तु समीचीनम्. अस्तु इदानीं धन्यवादः. अस्तु
धन्यवादः.
इदानीं हा इदानीं तत्र नूतन इदानीं तत्र घटपरिमाणम् अपि कपालपरिमाणं तत्र तयोः तत्र का स्थितिः इति. अस्तु इदानीं तत्र शोभा भगिनी अग्रे पठति वा इदानीम्.
आम् महोदय. तत्र इदानीं आहत्य
पूर्वं पठितवती. अस्तु अस्तु पठतु.
पठितवन्तः
इति सर्वे पठितवन्तः इति मन्ये. यतोहि तत्र आं मृणालिनी भगिनी न पठितवती. क्षम्यतां भगिनि. एकनिमिषम्.
अस्तु अस्तु.
मृणालिनी भगिनी अग्रे घटपरिमाणस्य इति.
घटपरिमाणस्य कपालपरिमाणस्य च कार्यकारणभावः. तत्र कार्यकारणयोः अधिकरणं समानम् इति साक्षात् न दृश्यते. तदर्थं परम्परया वक्तव्यं भवति एव. किमर्थं वक्तव्यम् इति चेत् कार्यकारणभावः अस्ति इति अस्माकम् अनुभवः. घटे विद्यमानस्य परिमाणस्य कारणं कपाले अवयवे विद्यमानं परिमाणम् इत्ययम् कार्यकारणभावः आनुभाविकः. अस्माभिः सर्वे अनुभूयते इति अनुभूयते इति कारणतः वा
कारणतः
कथञ्चित् कार्यकारणभावः साधनीयः.
क्षम्यतां महोदय. तत्र अन्यः एकः परिच्छेदः अस्ति खलु उपरि
सत्यं भगिनि. सत्यं. धन्यवादः भगिनि. चित्रं लिखितवान् अतः अहं चिन्तितवान् अस्तु अस्तु अग्रे किमस्ति तदेव पठितव्यमिति. क्षम्यताम्. अस्तु धन्यवादः शुभदः भगिनि. तर्हि धनन्दि भगिनि क्षम्यताम्. तर्हि आहत्य इति तत्र आरभ्य एव पठतु भगिनि. क्षम्यताम्.
आहत्य यत्र घटः समवायेन जायते कपाले तत्रैव तस्मिन् कपाले कपालद्वयसंयोगः समवायसम्बन्धेन अस्ति. घटं प्रति कपालद्वयसंयोगः असमवायिकारणम्. अत्र कपालान्तरभावेन कार्यकारणयोः सामानाधिकरण्यम् एवम् उभयमेकस्मिन् अधिकरणे इति प्रथमम् असमवायिकारणम्. कार्येन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्. यत्र घटः समवायेन जायते कपाले तत्रैव तस्मिन् कपाले कपालद्वयसंयोगः समवायसम्बन्धेन कपाले वर्तते आम्
तावत्पर्यन्तं प्रथमतया वदतु किम् उक्तम्
अत्र घटः इति कार्यं कपालः अधिकरणं तथा कपालद्वयसंयोगः कारणम्
किन्तु घटः समवायेन यत्र घटः समवायेन जायते इत्युक्ते तत्र किं सूचितं तत्र
यत्र
घटः समवायेन कुत्र जायते
अधिकरणे वा
न किन्तु अधिकरणं किम् अस्ति
अधिकरणं तु कपालः
खलु कपाले घटः समवायसम्बन्धेन वर्तते खलु कपालः एव समवायिकारणं खलु तर्हि अत्र यत्र घटः समवायेन जायते इति यदि पठामः ओ अस्तु अस्तु घटस्य समवायिकारणं तत्तु कपालः इति अवगन्तव्यः खलु तर्हि यत्र घटः समवायेन जायते नाम कपाले तत्रैव कपाले एव किमस्ति
तत्रैव तस्मिन् कपाले कपालद्वयसंयोगः समवायसम्बन्धेन वर्तते
वर्तते तस्मिन्नेव कपाले समवायसम्बन्ध तत्र संयोगः अपि समवायसम्बन्धेन वर्तते अग्रे
किमर्थं यतो हि कपालद्वयसंयोगः इति गुणः अस्ति गुणगुणिनोः कारणेन तत्र समवायसम्बन्धेन कपालद्वयसंयोगः कपाले वर्तते
उत्तमं अग्रे
घटं प्रति कपालद्वयसंयोगः अस्ति असमवायिकारणं
तत्र असमवायिकारणम् अस्ति तत्र अधिकरणं किम् अस्ति
अधिकरणं कपालः
कपालः अपि द्वयोः सम्बन्धः समवायः
उभयत्रापि संयोगः तु समवायसम्बन्धः
इति अस्ति समीचीनम् अग्रे अत्र
कपालान्तरभावेन कार्यकारणयोः समानाधिकरण्यम्
इत्युक्ते किम्
अत्र कपालान्तरभावेन कार्यस्य तथा कारणस्य समानाधिकरण्यं कपाले भवति
समानाधिकरण्यं भवति कपाले भवति इति न तत्र समानाधिकरण्यं भवति तत्र नाम कार्यस्य अपि कारणस्य तत्र समानाधिकरणम् अस्ति वा अत्र
अस्ति कपाले समानाधिकरणमस्ति अतः समानाधिकरण्यं वर्तते
तयोः समानाधिकरण्यं वर्तते कार्यकारणयोः समानाधिकरण्यम् इति भावः वर्तते समीचीनं कथं वर्तते कथम् एतद् भवति सिद्ध्यति कपालान्तर्भावेन नाम
कपाले गतभावेन
नाम कपाले द्वयमपि अस्ति इति कृत्वा कपाल अन्तर्भावेन कपाले कार्यमपि अस्ति करणमपि अस्ति इति कृत्वा तयोः समानाधिकरण्यं तावदेव किमपि नास्ति अग्रे एवम्
एवम् उभयमेकस्मिन् अधिकरणे इति प्रथमम् असमवायिकारणम् आम् इदानीं वयं प्रथम असमवायिकारणं पूर्वमपि पठितवन्तः तस्य एव उदाहरणमस्ति अत्र असमवायिकारणम् इति
तर्हि तत्र एतद्वाक्यं वयं तत्र विद्याधर्यां पठितवन्तः कार्येन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्
अर्थे समवेतं सत् कारणम् असमवायिकारणम्
नाम तत्र कार्येण सह एकस्मिन् अर्थे नाम एकस्मिन् अर्थे नाम एकस्मिन् अर्थे नाम पदार्थे पदार्थः एकस्मिन् पदार्थे नाम एकस्मिन्
अधिकरणे
अधिकरणे समीचीनम् एकस्मिन् अधिकरणे तत्र कार्येण सह समवेतं सत् कारणं नाम कारणं समवेतम् अस्ति नाम समवायसम्बन्धेन एकस्मिन् अधिकरणे अस्ति कार्येण सह तर्हि कार्यम् अपि तत्र समवेतम् अस्ति नाम तत्रापि सम्बन्धः समवायः अस्ति तदा तत् तादृशं कारणं भवति असमवायिकारणम् तर्हि असमवायिकारणम् एतावत् किम् उक्तम् तत्र अधिकरणम् अस्ति अधिकरणे कारणम् अस्ति कार्यमपि अस्ति द्वयोः सम्बन्धः समवायः अस्ति चेत् कारणम् असमवायिकारणम् इति वदामः प्रश्नः अस्ति वा एतावत् अस्तु हा तर्हि इदानीं तत्र अग्रे तत्र किञ्चित् सरामः हा तत्र एतावत् तत्र सर्वं स्पष्टं स्यात् यतोहि तत्र समवायिकारणं किम् असमवायिकारणं किम् इति पठितवन्तः किन्तु अत्र एतद् वाक्यमपि वयं पूर्वं पठितवन्तः तत्र कार्येण सह इति अस्ति तस्य महत्त्वं तस्य भागस्य महत्त्वम् अस्ति तत्र एतत् प्रथमविध असमवायिकारणं भवति यत्र कार्येण सह इति यत्र अस्ति तद्भवति प्रथमविध असमवायिकारणम् इदानीं तत्र घटः केवलं तत्र प्रश्नस्य विषयस्य उद्घाटनं केवलं प्रश्नः कः इति भवति तर्हि तत्र शुभभगिनी किञ्चित् पठति वा अत्र
आं महोदय इदानीं तत्र घटपरिमाणस्य कपालपरिमाणस्य च कार्यकारणभावः अस्तु अत्र तत्र घटपरिमाणस्य कपालपरिमाणस्य च कार्यकारणभावः अत्र कार्यकारणयोः अधिकरणं समानम् इति साक्षात् न दृश्यते तदर्थं परम्परया वक्तव्यं भवति एव किमर्थं वक्तव्यम् इति चेत् कार्यकारणभावः अस्ति इति अस्माकम् अनुभवः घटे विद्यमानस्य परिमाणस्य कारणं कपाले अवयवे विद्यमानं परिमाणम् इति अयं कार्यकारणभावः आनुभविकः अस्माभिः सर्वैः अनुभूयते इति कारणतः कथञ्चित् कार्यकारणभावः साधनीयः इति अस्तु इदानीं घटपरिमाणस्य कपालपरिमाणस्य च कार्यकारणभावः इति इत्यत्र कार्यकारणयोः अधिकरणं समानम् इति साक्षात् न दृश्यते इति
कारणं किं कार्यं किं
तत्र कार्यं कार्यं घटं कपाल किं तत्र कारणं कपालः इति वक्तुं शक्नुमः खलु महोदय
तत्र एतद् भवती पठितवती तत्र घटपरिमाणं कपालपरिमाणं
घटपरिमाणं परिमाणस्य कपालपरिमाणस्य च कार्यकारणभावः तत्र कार्यं घटपरिमाणम् अस्तु कः अस्तु क्षम्यताम् कार्यं घटपरिमाणं कारणं कपालपरिमाणं
तत्र वयं तत्र समानाधिकरणं न दृश्यते खलु साक्षात् न दृश्यते घटपरिमाणं कुत्र अस्ति
घटपरिमाणं घटे अस्ति कपालपरिमाणं कपाले अस्ति तत्र यतोहि तत्र अधिकरणं समानम् इति न दृश्यते
अतः परम्परया वक्तव्यं भवति नाम तत्र तत्र कार्यकरणभावः तयोः मध्ये अनुभवामः खलु परिमाणं भवेत् कारणं घटपरिमाणं प्रति इति अनुभवः अस्माकम् अतः यतोहि अनुभवामः तर्हि तत्र तयोः मध्ये कार्यकारणभावः अस्ति इति जानीमः किन्तु तस्य वर्णनं कथं भवेत् इति तस्मिन् विषये चिन्तनीयं चिन्तनं करणीयम् अस्माभिः
कार्यकारणयोः अधिकरणं महोदय इत्युक्ते अस्मिन् अस्मिन् परिच्छेदे कार्यकारणयोः अधिकरणं समानमिति साक्षात् न दृश्यते, तदर्थं परम्परया वक्तव्यं भवति इति दत्तम्
इति नाम अतः
किन्तु
वयं केनापि उपायेन तत्र समानाधिकरणं तयोः मध्ये वर्तते इति साधनीयमस्ति. तत्र सारल्य सरलतया तत्र न दृश्यते, किन्तु चिन्तनेन अस्तु अस्तु एतादृशं चिन्तनेन वयं साधितुं शक्नुमः इति किमपि तत्र प्रक्रिया भवेत्. एतया
प्रश्नः तत्र महोदय इत्युक्ते असमवायिकारणम् इति एतावता यत् पठितवन्तः तत् तदेव
अत्रापि असमवायिकारणम् एव अस्ति भगिनि, किन्तु प्रथमतया कारणम् इति साधनीयम्, तदनन्तरम्
अस्तु
कीदृशं कारणम् इति वक्तुं शक्नुमः, किन्तु प्रथमतया द्वयो तत्र कार्यं कारणं समाने अधिकरणे भवेत्. किन्तु अधिकरणं किं, घटः भवति वा कपालः भवति वा इति एतावत् न जानीमः.
अस्तु.
अथवा अन्यत् भवति वा अधिकरणम् इति न जानीमः. अतः तत्र प्रथमतया अधिकरणं किम् इति चिन्तनं, तदनन्तरं केन सम्बन्धेन कार्यम् अधिकरणे अस्ति, कार्यम् अधिकरणे अस्ति, कारणम् अधिकरणे अस्ति इति वक्तव्यं, तदनन्तरम् एव वयं वक्तुं शक्नुमः अस्तु कीदृशं कारणम् अस्ति इति. किन्तु कारणं कार्यकारणभावः तयोः मध्ये वर्तते इति तु आनुभविकः खलु.
आनुभविकः इत्युक्ते एतावता समवायिकारणम् इति साधितवन्तः, असमवायिकारणम् इति साधितवन्तः, किन्तु तत्र कार्यकारणभावः
अत्रापि असमवायिकारणम् एव अस्ति, किन्तु नूतनविध असमवायिकारणमस्ति, एतावत् न दृष्टवन्तः वयं तावदेव.
अस्तु महोदय.
तर्हि तत्र अत्र विशेषः वर्तते इति उक्तं खलु तत्र, परन्तु अत्र अस्ति कश्चित् विशेषः इति, तथैव तत्र तस्यैव तत्र विश्लेषणं करपत्रे.
आम् आम् आम्
इति. तर्हि तत्र अग्रिमे
द्वितीय असमवायिकारणं
कारणं असमवायिकारणं नास्ति, द्वितीयविध असमवायिकारणम्
असमवायिकारणम् इति अस्तु
भवति. अस्तु, तर्हि समयोऽपि जातः, अत्रैव विरमामः. धन्यवादः, नमस्कारः, अग्रिमे सप्ताहे मिलामः. तर्हि
महोदय, अग्रिमसप्ताहे करपत्रे एव पठामः वा?
सत्यं भगिनि, एतदेव करपत्रं करपत्रे एव पठामः. अग्रे गच्छामः. अस्तु भगिनि, नमस्कारः सर्वे.
धन्यवादः,
धन्यवादः, नमस्कारः.
धन्यवादः.